ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। गुरुभ्यो नमः। हरिः ओम्।
धन्यवादः धन्यवादः महोदय। नमस्कारः सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। एतावत् अस्माकं विषयः तत् यत् यं विषयं वयं पठितवन्तः सः विषयः आसीत् तत्र लृङ्लकारः। लृङ्लकारः यस्य सम्भावना नास्ति, तत्र यदि एतद् अभविष्यत् अहम् एतत् अकरिष्यम् इति तादृशं, तत्र किन्तु तद् न भविष्यति एव, केवलं तत्र सम्भावनार्थे इति आसीत्। अपि तत्र गतवर्गे तत्र अन्ते वयं तत्र अकर्मक अपि सकर्मकक्रियापद विषये किञ्चित् पठितवन्तः। तत्र धातूनां तत्र वैविध्यम् अस्ति इति दृष्टवन्तः। तत्र सकर्मकः धातुः वा अथवा अकर्मकः धातुः वा इति किं इदानीं तत्र अग्रे अद्य पश्यामः, नाम तत्र वस्तुतः धातूनां त्रैविध्यम् अस्ति न तु द्वैविध्यम्। तत्र त्रैविध्यं कथम् इति अग्रे पश्यामः। अस्तु तर्हि तत्र सूर्यकुमारी भगिनी तत्र पठति वा, तत्र पुटसङ्ख्या अस्ति पञ्चदशाधिकशततमे पुटे, तत्र नूतनविषयः अस्ति तत्र द्विकर्मकाः धातवः इति।
द्विकर्मकाः धातवः एतानि वाक्यानि सावधानतया परिशीलयत। भिक्षुकः धनिकं धनं याचति, याच धातुः याचति, धनिकं धनं
पदम् इति नपुंसकलिङ्गे अस्ति, अतः द्विवचने किं भवति, पदे स्तः। हा समीचीनम्।
अध्यापकः छात्रं प्रश्नं पृच्छति, पृच्छधातुः। पितामहः पौत्रं कथां वदति, वदधातुः। सेवकः आसन्दं प्रकोष्ठं नयति, नीधातुः। कर्मकरः पेटिकाम् आपणं वहति, वह धातुः।
हा समीचीनं भगिनि। हा अस्तु, इदानीं तत्र प्रथमवाक्यस्य विवरणं करोतु, तत्र अर्थः कः इति।
भिक्षुकः धनिकं धनं याचति, भिक्षुः कर्तृपदं, धनिकं कर्मपदं,
याचति याचति इति क्रियापदं,
कर्म कर्तृपयोगः अस्ति, भिक्षुकः याचति। किं याचति, धनं याचति। कीदृशधनं याचति, धनिकं धनं याचति।
समीचीनं भगिनि, समीचीनं। समीचीनं भगिनि। इदानीं तत्र प्रश्नः कथ, तत्र कर्मपदद्वयं समानं वा, अथवा तत्र यदि तत्र वदामः, तत्र पश्यतु, तत्र अहं पुस्तकं लेखनीं पश्यामि, तत्रापि कर्मपदं द्वयम् अस्ति खलु। अहं पुस्तकं लेखनीं पश्यामि, तत्रापि तस्मिन् वाक्ये अपि कर्मपदद्वयम् अस्ति खलु। किन्तु तत्र तत्रापि कर्मपदद्वयम् अस्ति, अत्र अपि कर्मपदं द्वयम् अस्ति, समानं वा।
समानमेव,
समानं वा।
पुस्तकं लेखनीं
पश्यामि,
पुस्तकं पश्यामि, लेखनीम् अपि पश्यामि।
अहं पुस्तकं लेखनीं पश्यामि, अत्रापि तदेव अस्ति वा, तत्र भिक्षुकः धनं याचति, भिक्षुकः धनिकं याचति, समानं वा अत्र।
समानं नास्ति.
हा, अतः भेदः कः?
भिक्षुकः धनिकात् अपि भवति, धनिकात् धनं याचति. द्वितीय उदाहरणे द्वितीयविभक्ति एव भवति. पुस्तकं, लेखनी, पश्यति.
न भगिनि, भवती न गच्छति इति मन्ये. तत्र अत्र कर्मपदं द्वयमस्ति खलु?
आम् महोदय.
हा, इदानीं तत्र भवती अन्यत् किमपि वाक्यं वदतु यत्र कर्मपदम् अस्ति.
बालकः पुस्तकं क्रीणाति.
अस्तु, इदानीं बालकः पुस्तकमपि क्रीणाति, लेखनी अपि लेखनीमपि क्रीणाति. इदानीं वाक्यं वदतु, तत्र किम् अस्ति?
बालकः पुस्तकं, लेखनीं क्रीणाति
च. क्रीणाति अथवा क्रीणाति, अस्तु. इदानीं तत्रापि कर्मपदद्वयमस्ति, अत्रापि कर्मपदद्वयमस्ति. समानं वा अथवा तत्र प्रयोगः समान? लक्ष्मी भगिनी, नमस्कारः भगिनी. पुटसङ्ख्या अस्ति तत्र 15 अधिक शततमे पुटे वयं स्मः.
धनिकं धनिकं पुरुषः, धनिकपुरुषः धनिकं समानमेव महोदय.
अतः तत्र धनं याचति इत्युक्ते किं? धनं याचति इत्युक्ते भिक्षुकः धनं याचति इत्युक्ते अर्थः कः?
भिक्षुः रूप्याणि.
अस्तु, धनं ददातु इति पृच्छति. इदानीं तत्र भवती उक्तवती तत्र बालकः लेखनीं क्रीणाति, पुस्तकं क्रीणाति. तत्र लेखनीं क्रीणाति, पुस्तकमपि क्रीणाति, समानं खलु तत्र? अत्र भिक्षुकः धनं याचति, तत्र रूप्यकाणि ददातु इति याचति. इदानीं धनिकम् अस्तु, धनिकं ददातु इति याचति वा?
धनिकं
साक्षात् धनिकं मह्यं ददातु इति याचति वा? यथा रूप्यकाणि ददातु इति तादृश अर्थे
याचति अपि साधु. धनिकं
न, किन्तु सः साक्षात् धनिकं, धनिकः यः अस्ति तं ददातु इति याचति वा सः?
न.
अस्तु, भवती तत्र अस्तु, अन्यं पृच्छामि, चिन्ता मास्तु भगिनि. अस्तु, एकनिमिषः. अत्र रघुवीरेन्द्रस्वामी, किञ्चित् वदतु स्वामी.
आम् महोदय. महोदय, किं करणीयं महोदय?
हा, तत्र भिक्षुकः धनिकं धनं याचति इति वाक्यमस्ति महोदय. प्रथमवाक्यं पुटसङ्ख्या जानाति खलु? तत्र 15 अधिकशततमे पुटे स्मः वयं.
महोदय,
अत्र कर्मपदद्वयम् अस्ति इति उक्तं. तत्र सूर्यकुमारी भगिनी उक्तवती तत्र कर्मपदद्वयम् अस्ति इति. अङ्गीकरोति वा तत्र
तद् विवक्षा यथा अस्ति तथैव भवति महोदय? तत्र द्विकर्मकम् अस्ति.
इदानीं प्रथमतया सोपानेन गच्छामः महोदय. तत्र कर्मपदद्वयम् अस्ति इति अङ्गीकरोति खलु?
सत्यम्.
हा, अस्तु. इदानीं तत्र बालकः लेखनीं पुस्तकं क्रीणाच्च क्रीणाति, तत्रापि कर्मपदद्वयम् अस्ति. तत्र लेखनीम् इति कर्मपदं, पुस्तकम् अपि कर्मपदं. सः लेखनीं क्रीणाति, सः पुस्तकमपि क्रीणाति. तत्र कर्मपदद्वयमस्ति, अत्रापि कर्मपदद्वयमस्ति. तत्र समानप्रयोगः वा अथवा भिन्नप्रयोगः, किं चिन्तनं?
भिन्नप्रयोगः महोदय.
हा, भिन्नप्रयोगः. तत्र कर्मपदद्वयम् इति अस्ति इति तत्र वयं चिन्तयामः, तत्तु नूतना वार्ता नास्ति. वयम् अनेकानि कर्मपदं योजितुं शक्नुमः. तत्र बालकः पुस्तकानि क्रीणाति, लेखनीः क्रीणाति, तत्र किम् अन्यत् किमपि क्रीणाति तत्र अनेकानि वस्तूनि सा क्रीणाति तत्र कर्मपदद्वयं वा त्रयं वा भवितुम् अर्हति किन्तु अत्र कर्मपदद्वयमस्ति चेत् इति किमर्थं वदामः यतोहि तत्र तयोः तत्र कार्यम् अस्मिन् वाक्ये तयोः कार्यं भिन्नम् अस्ति तत्र कर्मपदद्वयमस्ति तयोः मध्ये भेदः कश्चन भेदः वर्तते अतः तत्र धनं याचति धनिकं याचति तत्र अतः तत्र रघुवीरस्वामी तत्र भेदः कः धनं याचति अपि धनिकं याचति भेदः कः तत्र
महोदय तत्र विवक्षा अस्ति द्विकर्मकद्युः याच प्रचदण्ड
तत् 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 सर्व अग्रे आगच्छति महोदय इदानीं केवलं वाक्यं दृष्ट्वा वदतु सरलरूपेण वदतु महोदय
महोदय भिक्षुकः धनिकात् धनं याचति
इति समीचीनं तावदेव महोदय धन्यवादः तत्र भिक्षुकः धनिकात् धनं याचति तत्र धनिकं धनं याचति इत्युक्ते धनिकं पृच्छति धनं ददातु इति पृच्छति सः धनं न पृच्छति धनस्य समीपं गत्वा धनिकं ददातु इति न पृच्छति खलु केवलं धनिकस्य समीपं गत्वा धनं ददातु इति पृच्छति न तु धनस्य समीपं गत्वा धनिकं ददातु इति अतः तत्र तयोः मध्ये भेदः वर्तते तत्र धनिकम् इति स्थाने धनिकात् इति स्थापितुं शक्नुमः सः धनं कस्मात् याचति धनिकात् याचति इति अतः तत्र धनिकम् इति कर्मपदमस्ति धनम् इति कर्मपदमस्ति किन्तु तयोः मध्ये भेदः अस्ति तत्र बालकः लेखनीं क्रीणाति पुस्तकं क्रीणाति तत्र पुस्तकात् लेखनीं क्रीणाति इति न वक्तुं शक्नुमः खलु अतः तत्र पुस्तकं वा लेखनीं वा समानं तत्र तेषां कार्यं वाक्ये समानमस्ति किन्तु अत्र धनिकम् अपि धनं तयोः कार्यं समानं नास्ति अतः तत्र द्विकर्मकधातुः इति अस्माकम् अद्यतनविषयः अस्ति धन्यवादः स्वामी अग्रे
प्रधानकर्मपदम् अस्ति
प्रधानम् अपि तत् तत् एतावत् वयं तत् केवलं नाम अस्ति भगिनि किन्तु अर्थः कः तत्र यदि वदामः तत् प्रधानम् अस्ति अस्तु प्रधान नाम किं पुनः तत्र अवगमनं भवेत् खलु तदेव तदेव तत्र पृष्टवान् भगिनि तावदेव तत्र भेदः अस्ति वा तयोः मध्ये धनिकमपि धनं तयोः मध्ये भेदः अस्ति न वा इति भवती इदानीं किं वदति भेदः अस्ति खलु अस्ति समीचीनं इदानीं तत्र भेदः अस्ति इति कृत्वा तत्र एकस्य नामकरणं भवति अपि नाम भिन्नं भवति अन्यस्य नामात् अन्य इति अतः तत्र अग्रे पश्यामः इदानीं तत्र लक्ष्मी भगिनी इदानीं तत्र द्वितीयवाक्यं तत्र अध्यापकः छात्रं प्रश्नं पृच्छति तत्र
अध्यापकः छात्रं प्रश्नं पृच्छति छात्रं प्रश्नं द्विकर्मकः कर्मपदद्वयम् अस्ति
तत्र अत्र किम् अस्ति तत्र छात्रं प्रश्नं समान तत्र समान स्थानम् इति चिन्तयति वा अथवा तत्र भेदः अस्ति इति चिन्तयति वा
भेदः अस्ति प्रश्नम् इति तद् अन्यविभक्त्यां प्रयोक्तुं न शक्नुमः छात्रेभ्यः इति छात्रं छात्रात् इति भवितुम् अर्हति
तत्र भिन्नविभक्ति भिन्ना विभक्ति भवितुम् अर्हति तत्र तत्र किमस्ति तत्र प्रश्नम् इति विषयमस्ति अपि छात्रम् इति तत्र छात्रः कश्चन पुरुषः अस्ति तत्र सम्बन्धः भिन्नः अस्ति तत्र तयोः मध्ये तत्र अध्यापकः छात्रं पृच्छति तत्र किं पृच्छति इत्युक्ते तत्र प्रश्नं पृच्छति इति तत्र भवति, किन्तु तद् केवलं प्रथमसोपानं, तस्मात् अग्रे अपि गन्तुं शक्नुमः यथा भवती उक्तवती। हा, अतः तत्र भेदः वर्तते, समीचीनम्। अस्तु, नरेश् महोदय, तृतीयवाक्ये भेदः वर्तते वा?
पितामहः पौत्रं कथां वदति, भेदः तु अस्ति।
हा, भेदः अस्ति, हा अस्ति। अतः तत्र अपि तादृशमेव, तत्र अग्रिमवाक्ये अपि तत्र भेदः अस्ति। इदानीं तत्र एषः भेदः कः इति ज्ञातुं तत्र अग्रे पठामः। तत्र लक्ष्मी भगिनी, भवती एव तत्र अवधेयम् इति पठति वा तत्र?
आम् महोदय। याच् प्रच् वद वद इत्येतादृशाः उपरितनवाक्येषु प्रयुक्ताः धातवः द्विकर्मकाः, यतः एतेषां कर्मद्वयं सम्भवति।
हा, तत्र याच् पृच् अपि वद् इत्येतादृशाः धातवः ये सन्ति तत्र उपरितनवाक्येषु, ते प्रयुक्ताः नाम ते तेषां प्रयोगं कृतं खलु तत्र धातूनां, तत्र एतादृशानां धातूनाम् उपयोगं उपयोगं कृतं तेषां तत्र कर्मद्वयं, तेषां धातूनां कर्मद्वयं सम्भवति। सम्भवति नाम तत्र विकल्पेन, यथा इच्छा, तत्र एकमेव कर्मपदं वा अथवा कर्मपदद्वयमपि तत्र स्थापितुं शक्नुमः। तत्र अध्यापकः इति द्वितीयवाक्यमस्ति खलु भगिनी, लक्ष्मी भगिनी, तत्र सदा तत्र द्विकर्मक भवत् इति वार्ता वा अथवा तत्र केवलम् एक कर्मपदमपि स्थापितुं शक्नुमः वा?
एकमेव स्थापितुं
शक्नुमः। हा, तत्र अध्यापकः तत्र रूपं कीदृशं भवति?
अध्यापकः प्रथमाविभक्ति एकवचनं,
न न वाक्यं, तत्र केवलम् एककर्म एकमेव कर्मपदं भवति चेत्?
अध्यापकः छात्रं प्रश्नं पृच्छति,
तद् द्विकर्मक अस्ति। इदानीं भगिनि कर्मपदद्वयमस्ति किन्तु एकमेव कर्मपदं भवति चेत्?
अध्यापकः प्रश्नं पृच्छति,
तद् अवगच्छामः खलु, अध्यापकः किं पृच्छति, अध्यापकः प्रश्नं पृच्छति। इदानीम् अन्यत् वाक्यम्,
अध्यापकः छात्रान् पृच्छति,
अध्यापकः छात्रम् अथवा छात्रान् पृच्छति, अध्यापकः कं पृच्छति, अध्यापकः छात्रं पृच्छति, तदपि साधु अस्ति, वयम् अवगच्छामः तस्य वाक्यस्य अर्थः कः इति। अतः तत्र द्विकर्मकधातूनां तत्र विकल्पेन, तत्र एतेषां द्विकर्म कर्मद्वयं सम्भवति, तत्र सम्भावना अस्ति, तत्र कर्मपदद्वयं स्थापितुं शक्नुमः। अस्तु, समीचीनम्। हा, अग्रे भगिनि,
द्विकर्मकप्रयोगे एकं कर्म प्रदानम् अपरं च गौणं भवति।
हा, तत्र एतावत् वयं दृष्टवन्तः, तत्र कर्मपदद्वयं तत्र समानं नास्ति, तत्र तयोः मध्ये कश्चन भेदः वर्तते, अतः तत्र एकं कर्म प्रधानम् इति वदामः, अपरं च गौणम् इति वदामः। तत्र किमर्थं भगिनि तत्र प्रधानम् इति वदामः न तु प्रधानः इति?
कर्म इति नपुंसकलिङ्गम्।
हा, इति समीचीनं। तत्र कर्म नाम कर्मण्, कर्म इति नपुंसकलिङ्गे अस्ति, अतः प्रधानम् इति विशेषणं भवति, तत्र प्रधानं कर्म, गौणं कर्म इति। हा, समीचीनं। हा, अग्रे,
गौणं कर्म, यस्य कर्मणः अन्यविभक्तिप्राप्तिसम्भावना अस्ति तद् गौणं कर्म इति ज्ञातुं शक्यते। यथा भिक्षुकः धनिकं धनं याचति इत्यत्र धनिककर्मणः धनिकात् इति पञ्चमी विभक्तिः अपि भवितुम् अर्हति, अतः अत्र धनिकः गौणं कर्म भवति।
हा, तत्र अत्र धनिकम् इति प्रथमवाक्ये धनिकम् इति आसीत्, तत्र धनिकम् इति स्थाने धनिकात् इति स्थापितुं शक्नुमः। विभक्ति विभक्तेः परिवर्तनं कर्तुं शक्नुमः अथवा अन्या विभक्त्यन्तरूपं स्थापितुं शक्नुमः अतः तत्र तद् कर्म गौणं कर्म इति अथवा कर्मपदम् इति वदामः तत्र यस्य कर्मणः तत्र किमर्थं यस्य कर्मणः इति अस्ति तत्र यस्य कर्मणः अन्यविभक्तिप्राप्तिसम्भावना अस्ति इति तत्र किमर्थं कर्मणः इति अस्ति
पञ्चमीविभक्ति
कर्मणः इति पञ्चमी अपि षष्ठी भवति किन्तु षष्ठी हा तत्र किं वदामः तत्र अन्यविभक्तिप्राप्तिसम्भावना नाम अन्यविभक्त्यन्तरूपं यस्य भवितुम् अर्हति तत्र खलु सम्भावना अस्ति नाम भवितुम् अर्हति किं भवितुम् अर्हति अन्यविभक्तिप्राप्तिः नाम अन्यविभक्तिरूपम् अन्यविभक्त्यन्तरूपं स्थापितुं भवितुम् अर्हति किन्तु कस्य तत्र कर्मपदस्य कस्य कर्मपदस्य अथवा कस्य कर्मणः इति केवलं कर्मपदम् इति स्थाने कर्म इति अस्ति चेत् कर्मपदस्य इति स्थाने कर्मणः इति रूपं खलु तावदेव अस्तु अतः तत्र अत्र अस्मिन् वाक्ये धनिकम् इति गौणं कर्मपदम् अपि धनम् इति तत्र प्रधानं कर्मपदम् इति भवति अस्तु धन्यवादः भगिनी इदानीं तत्र नरेश महोदय इदानीं प्रधानं कर्म इति वद पठतु महोदय
प्रधानं कर्म यस्य कर्मणः सर्वदा कर्मत्वम् एव भवति यत्र च अन्यविभक्तेः प्रयोगस्य सम्भावना नास्ति तत् प्रधानं कर्म
उदाहरणं
यथा भिक्षुकः धनिकं धनं याचति इत्यस्मिन् वाक्ये धनम् इत्यस्य सर्वदा कर्मत्वम् एव भवति अतः तत्र द्वितीया विभक्तिः एव भवति
तत्र धनमिति तत्र धनात् इति न स्थाप्य न वक्तुं शक्नुमः तत्र भिक्षुकः धनात् धनिकं याचति इति वदामश्चेत् तत्र किं वैचित्र्यं खलु तत्र धनिकः धनं याचति समीचीनं किन्तु धनात् धनिकं याचति चेत् किमस्ति अतः तत्र धनमिति स्थाने धनात् इति न स्थापितुं शक्नुमः अतः तत्र धनमिति तत्र द्वितीयविभक्त्यन्तं तत्र कर्मत्वं तत्र कर्मपदस्य एव द्वितीयविभक्तिः इति जानीमः तत्र कर्मत्वं नाम तत् कर्मपदमस्ति कर्मपदमस्ति चेत् तस्मिन् कर्मपदे कर्म इति भावः अस्ति यतोहि तत्र यदि तत्र किं तत्र रक्तवर्णघटः अस्ति चेत् तत्र रक्तवर्णः अस्ति तत्र रक्तत्वं घटे अस्ति इति तत्र तादृश तत्र भावः अस्ति तादृशं तत्र कर्मपदमस्ति अतः कर्मत्वं तस्य भावः कर्मत्वम् इति कर्मत्वम् इति तत्र तस्मिन् कर्मपदे अस्ति यस्मिन् पदे तत्र कर्मत्वं तत्र सर्वदा भवति नाम कर्मत्वं स्थिरं भवति तत्र तस्य चरणं तत्र तत् स्थिरमस्ति तत्र तत्र किमपि वयं न कर्तुं शक्नुमः अचलम् अस्ति तत्र कर्मत्वं तादृशमस्ति चेत् तत्र तद् पदं भवति अथवा कर्म भवति प्रधानकर्म इति अतः तत्र अस्मिन् वाक्ये धनम् इति प्रधानकर्मपदं धनिकम् इति गौणकर्मपदं कर्मपदम् इति भवति रघुपतिमहोदय नमस्कारः
नमस्ते महोदय क्षम्यतां
नमस्कारः चिन्ता मास्तु महोदय पुटसङ्ख्या अस्ति पञ्चाधिकशततमे पुटे अस्तु इदानीम् अग्रे सरामः तर्हि तत्र रघुवीरेन्द्रस्वामी इदानीं तत्र अग्रे तत्र द्विकर्मकाः दातवः इति अस्ति तत्र एकवारं तत्र तत् वाक्यं पठित्वा तत्र अधोभागे एवं धातवः इति अस्ति तद् केवलं तत् पठतु महोदय रघुनन्दस्वामी अस्ति वा
ओ क्षम्यताम् अहं म्यूट् मध्ये अस्मि
अस्तु 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 चिन्ता मास्तु हा इदानीं तत्र द्विकर्मकाः
षोडशः सन्ति महोदय
षोडशः अथवा षोडश सन्ति हा तत्र प्रायशः
तत्र नास्ति वा
हा तत्र प्रायशः सन्धिकार्यं भूत्वा तत्र नास्ति इति मन्ये हा
सन्धि अस्ति चेत् षोडश सन्ति
हा
नास्ति तत्र एकादश द्वादश इति खलु तत्र नास्ति विंशतिः अनन्तरं
विंशति अनन्तरम् एव विसर्गः धन्यवादः महोदय धन्यवादः तेषां
लकारे कथं पुरुषे एकवचन पुरुषे एकवचनरूपाणि एवं भवति
एकवारं पठतु महोदय तत्र
दुहिया च पच दण्ड रुध प्रचचि ब्रूषा जि मन्थ मुष कृष वह
इदानीं तत्र अधोभागे तत्र एकं वाक्यमस्ति तत्र
एवं धातवः अकर्मकाः अकर्मकाः विकर्मकाः इति त्रिधा भवन्ति
हा इति अतः तत्र केवलं तत्र पूर्वं वयं दृष्टवन्तः तत्र वैविध्यम् अस्ति इति तत्र अकर्मकः वा द्विकर्मकः धातुः वा इति किन्तु वस्तुतः तत्र वैविध्यम् अस्ति नाम अकर्मकः धातुः सकर्मकः धातुः अपि द्विकर्मकः धातुः द्विकर्मकः धातुः सकर्मकधातु धातवः ये सन्ति सकर्मकाः धातवः ये सन्ति तेषाम् अन्तर्भूताः भवन्ति द्विकर्मकाः तत्र षोडश सन्ति इति द्विकर्मकाः धातवः षोडश सन्ति तत् सत्यं किन्तु तत्र किञ्चित् वक्तव्यमस्ति नाम केवलं तत्र षोडशः इति तत्र प्रतिनिधिरूपत्वेन स्वीकृतमस्ति नाम यस्य धातोः अर्थः समानार्थकः धातुः अस्ति चेत् तस्यापि द्विकर्मकत्वं भवति इति वार्ता अस्ति अतः तत्र मनसि स्थापयन्तु तत्र केवलम् एते षोडशः धातवः न किन्तु यः कोऽपि धातुः यस्य अर्थः एतेषु एकस्य अर्थसमानम् अस्ति चेत् तत्र सः धातुः अपि द्विकर्मकः भवितुं भवति इति इदानीं तत्र अहं चाट् मध्ये प्रेषयामि तत्र लिङ्क् एकं लिङ्क् अस्ति तत्र प्राप्तं वा सर्वे प्राप्तवन्तः वा एतत् स्वरूप महोदयस्य करपत्रम् अस्ति हा द्विकर्मकः द्विकर्मकाः दातवः इति सर्वे प्राप्तवन्तः वा
अहं तु न प्राप्तवान्
हा महोदय भवान् तु तत्र दूरवाण्या द्वारा अस्ति खलु तत्र चाट् मध्ये प्रायशः भवान् अस्तु अस्तु एकनिमिषः अहं तत्र मेल् माध्यमेन प्रेषयामि महोदय एकनिमिषः
वाट्साप् मध्ये
वाट्साप् मध्ये किन्तु मम पार्श्वे इदानीं दूरवाणी नास्ति महोदय एकनिमिषः तत्र यदि अहं तत्र ईमेल् द्वारा प्रेषयामि समीचीनं वा
समीचीनं हा
हा अस्तु अस्तु ईमेल् द्वारा प्रेषितवान् महोदय अस्तु अतः सर्वे प्राप्तवन्तः इति मन्ये लक्ष्मी भगिनी प्राप्तवती वा अस्तु सूर्यकुमारी भगिनी न प्राप्तवती वा चाट् मध्ये अस्ति खलु भगिनी न प्राप्तवती वा न वा सूर्यकुमारी भगिनी न प्राप्तवती सूर्यकुमारी भगिनी
प्राप्नोमि महोदय
अस्ति वा तत्र चाट् मध्ये दृष्टवती खलु अस्तु 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 अस्तु
क्षम्यताम्
अस्तु अस्तु तर्हि तत्र अस्तु तत्र रघुपतिमहोदय तत्र आरम्भं करोति वा महोदय
विकर्मकस्थले कर्मणि प्रयोग तदेव वा महोदय तत् एकवारं
न कर्मणि प्रयोग न महोदय इदानीं केवलं द्विकर्मक इति विषयः अग्रे कर्मणि प्रयोगः भवति
पुस्तके पुस्तकात् अहं पठन् अस्मि अस्तु द्विकर्मकस्थाने अपादानादीनाम् अविवक्षायां व्यवस्था तदेव खलु
किन्तु भवान् जानाति वा कस्मिन् कस्मात् पुस्तकात् एतत्
महाबलेश भट्टोरेस्य कारकपुस्तकस्य
ओ अस्तु 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 कारकमिति अस्तु अस्तु
तत्र 61 पेज् मध्ये अस्ति
ओ इति वा अस्तु महोदय अहं न ज्ञातवान् अस्तु
दुष्यादयः दातवः द्विकर्मकाः भवन्ति द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति अपादानादिविशेषैः अव्यवक्षितं कारकं गौणं कर्म भवति ततः द्वितीया अपि भवति यदि अपादानादित्वरूपेणैव विवक्षा भवति तदा तत्तत् कारकादिसम्बन्धीनि विभक्तिरेव प्रवर्तते इति
किञ्चित् तत्र वदतु महोदय
अस्तु
प्रायशः तत्र सर्वेषां क्लिष्टम् अस्ति तत्र
दुहुयाच पचदण्ड इत्यादि षोडश दातवः सन्ति ते अपि तदर्थकाः दातवः तत्र कर्मद्वयं भवति ते तयोः मध्ये एकमस्तु प्रधानकर्म भवति अन्यदपि गौणकर्म इति वदामः तत्र गौणकर्म तत् गौणकर्म यदस्ति तद् यदि अस्माकं विवक्षा वक्तुम् इच्छा नास्ति चेत् कारकं तत् कारकः एव अस्ति परन्तु कारकविभक्ति अन्यविभक्ति पञ्चमी अथवा चतुर्थी अथवा तृतीया अथवा सप्तमी इति भवितुम् अर्हति परन्तु तद् इदानीम् अस्माकं विवक्षा नास्ति वक्तुम् इच्छा नास्ति चेत् तत्र एतेषु धातुषु प्रयोगे तत्र गौणकर्मणः तत्र द्वितीयविभक्ति भवति कर्मत्वं प्राप्नोति अतः द्वितीयविभक्ति भवति इति अस्ति
किञ्चित् शिनैः गच्छामः धन्यवादः महोदय तदेव अस्तु तत्र अस्तु तत्र रघुवेन्द्रस्वामी तत्र एकवारं पुनः एकवारं वदति वा तत्र एतदेव पठित्वा तत्र दुह्यादयो दातवः इति तत्र
महोदय किं पठनीयं महोदय
तत्र यत् अहं शेर् कृतवान् महोदय तत्र परिशिष्टम् इति अस्ति खलु तत्र प्रथमपरिच्छेदः तत्र दुहादयो धातवः विकर्मकाः भवन्ति इति
आं महोदय एकं परिशिष्टम्
दुहादयोः दातवः द्विकर्मकः भवतिकर्मकाः भवन्ति द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति
तावत्पर्यन्तं तत्र दुहादयोः दातवः नाम यत् भवान् पठितवान् पूर्वं तत्र षोडश दातवः ते द्विकर्मकाः भवन्ति जानीमः खलु इदानीं तत्र द्वयोः कर्मणोः नाम तत्र कर्मपदं द्वयमस्ति अतः द्वयोः कर्मपदयोः अथवा कर्मणोः किमस्ति
परं प्रधानम्
इति दृष्टवन्तः प्रधानं कर्म गौणं कर्म इति अपि दृष्टवन्तः इदानीम् अग्रे
अपादानादिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति
तत्र इदानीं तत्र कार्यं किम् इत्युक्ते तत्र प्रथमतया तत्र वयं वाक्यं पठामः वाक्ये अभिज्ञानं भवति नाम अस्तु एतत् क्रियापदं द्विकर्मकक्रियापदम् अस्ति इति तत्र कर्मपदं द्वयम् अस्ति. इदानीम् अस्माकं कार्यं किम् अस्ति तत्र? अस्तु, अहं जान वयं चिन्तयामः, अस्तु तत्र कर्मपदं द्वयमस्ति, एकं गौणम् अस्ति, एकं प्रधानम् अस्ति. किन्तु कथं तस् निर्णयः भवति तत्र किं पदं गौणं, किं पदं प्रधानम् इति? अतः तत्र पूर्वमपि तत्र पुस्तके अपि दृष्टवन्तः, तदेव अत्रापि उक्तं, किन्तु अन्यैः शब्दैः उक्तम्. अतः तत्र अपादानादिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति. तत्र अविवक्षितं नाम विवक्षितम् इत्युक्ते विवक्षा नाम
वक्तुमिच्छा,
न वक्तुमिच्छा, विवक्षा तत्र जिज्ञासा इति ज्ञातुमिच्छा, विवक्षा इति वक्तुमिच्छा. तत्र विवक्षितं नाम तत्र पठितम् इति तादृशं विवक्षितं, यत् वक्तुम् तत्र इष्टं तत्र कस्मिन् विशेषैः अपादानादिविशेषैः अविवक्षितं. तत्र तद् यत्र तत्र अविवक्षितं कारकं गौणं कर्म भवति. तत्र किं भवति? तत्र यदि तत्र वयम् अपादानादि विशेषैः तत्र अविवक्षितं कारकं गौणं कर्म भवति, तदा ततः द्वितीया अपि भवति. नाम तत्र एकस्य कर्मपदस्य अन्यविभक्तिरूपमपि भवितुम् अर्हति, अपि तस्य द्वितीयाविभक्तिरूपमपि भवितुम् अर्हति. तत्र कारकम् इति अस्ति, कारकम् इति पदमस्ति, विभक्तिः इति अपि जानीमः. तत्र तयोः मध्ये कः सम्बन्धः नाम, तत्र विभक्ति इति केवलं रूपम् इति विषये एव. तत्र द्वितीयाविभक्त्यन्तं तत्र इति तत्र धनिकं विभक्त्यन्तं द्वितीयाविभक्त्यन्तम् इति एव जानीमः, ते तु जानीमः, रूपस्य विषयः अस्ति. कारकं नाम किमर्थं तस्य द्वितीयाविभक्त्यन्तरूपम् अस्ति इति, तत्र कारणं यदि पृच्छामः किमर्थं, तत्र कारणं नाम कारकं, कारकं वदति तत्र किमर्थं तस्य रूपं द्वितीयाविभक्त्यन्तम् अस्ति इति. अतः तत्र यदि तत्र अपादानादि तत्र पञ्चमी अपादानं पञ्चमी विभक्तेः कारणमस्ति कारकं, तत्र तादृशं न वक्तुम् इच्छामः. तत्र कर्तुं शक्नुमः, किन्तु तद् यदि तत्र न कर्तुं कुर्मः तत्र तादृशं यत्र तत्र सम्भावना अस्ति तत्र तादृशं पदं गौणं कर्म भवति, अपि तत्र द्वितीया अपि भवितुम् अर्हति. किन्तु तत्र अतः तत्र उदाहरणं पश्यामः, अपि तत्र वयमपि उक्तवन्तः, तत्र भिक्षुकः धनिकं धनं याचति, भिक्षुकः धनिकात् धनं याचति, तत्र धनिकात् इति पञ्चमी अपादानरूपं तत्र अपादानकारकम् अस्ति, तत्र पञ्चमी विभक्त्यन्तम् अपि भवितुम् अर्हति. तत्र यदि अपादानादित्वरूपेणैव विवक्षा भवति तदा तत्तत्कारकादिसम्बन्धीनि विभक्तिः एव प्रवर्तते. तत्र यथा कारकं तत्र यद् यः अर्थः तत्र स्थापितुं तत्र कारकं कारणं अस्मिन् मनसि अस्ति, तं कारणमनुसृत्य तत्र विभक्तिरूपं तत्र स्थापयामः वाक्ये इति. अस्तु, तर्हि तत्र इदानीं तत्र वाक्यानि पठामः, किन्तु तत्र प्रधानतया तत्र किं स्थापनीयं मनसि, तत्र एकस्य कर्मपदस्य विभक्त्यन्तं तत्र द्वितीयाविभक्त्यन्तम् एव भवति, तत्र स्थिरः अस्ति, तत्र स्थिरमस्ति तत्र कर्मत्वम्, अन्यस्य कर्मत्वं स्थिरं नास्ति. तत्र अन्यत् रूपमपि स्थापितुं शक्नुमः, यस्य अन्यत् रूपं स्थापितुं शक्नुमः सः गौणकर्मपदं गौणं कर्म, यस्य स्थिरम् अस्ति सः प्रधानकर्मपदम्. अस्तु, इदानीं धन्यवादः, अग्रे सरामः. तर्हि तत्र सूर्यकुमारी भगिनी प्रथमं वाक्यं पठति वा?
गोपालः गां पयो दुग्धि.
तत्र यथा भिक्षुकः धनिकं धनं याचति तादृशमेव तत्र गोपालः गां पयो दुग्धि पयो नाम पयः पयस् पयः पयो दुग्धि इदानीं तत्र वामभागे एतद् वाक्यम् अस्ति दक्षिणभागे
गोः पयः दुग्धि
गोपालः गोः पयः
दुग्धि
हा इदानीं तत्र भेदः कः तयोः वाक्ययोः मध्ये
गौणकर्मपदमस्ति प्रधानकर्मपदमपि अस्ति पयः प्रधानकर्मं कर्म गो गां गौ
धेनुः धेनु धेनुं
द्वितीयविभक्तिः गोः पञ्चमी
तत्र धेनुः अस्ति तत्र धेनुः अस्ति तत्र तस्मात् इति अर्थे ततः तत्र पयः सः प्राप्नोति गोपालः प्राप्नोति तत्र दुग्धि तत्र गोः इति पञ्चमी पयः इति तत्र किं पयः नाम दुग्धं क्षीरं दुग्धि गोपालः किं महोदय
पयस् जलमपि अस्ति
सः भवितुम् अर्हति आप् इति
तत्र गां गौः दुग्धं ददाति पर अनन्तरं वयं यदा प्राप्स्यामः तत्र पय जलमेव
शब्दकोशे पयस् जलमस्ति
तत्र अनेकाः अर्थाः सन्ति अनेके अर्थाः सन्ति महोदय खलु किन्तु अस्मिन् प्रसङ्गे तु तत्र पयः नाम क्षीरम् अथवा दुग्धम् इति
सागर पयोनिधि इति वदामः खलु समुद्रे पयोनिधिः इति
पयोनिधिः अस्तु अग्रे समीचीनं भगिनी सुरकुमारी भगिनी समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी अग्रिमम्
अस्तु वामनः बलिं वसुधां याचते बलिम् इति द्वितीयविभक्ति वसुधाम् अपि द्वितीयविभक्तौ अस्ति
विभक्त्यन्तं तत्र बलिम् इति विभक्त्यन्तपदं द्वितीयविभक्त्यन्तं
वामनः बलेः वसुधां याचते
इदानीम् अर्थः कः इति किञ्चित् विवृणोति वा
पञ्चमी विभक्ति
किन्तु अर्थः वाक्यस्य अर्थः कः वामनः बलिं वसुधां याचते इति तत्र अर्थः कः
वामनः वसुधां याचते
किन्तु
बलिं याचते
किन्तु अर्थः कः किञ्चित् अधिकं वदतु भगिनि
कस्मात् याचते
न तत्र भूमिका तत्र अत्र वामनः नाम कः
विष्णुः
विष्णु अवतारं तत्र विष्णोः अवतारं तत्र वामनः सः बलि इति राजा यः अस्ति तं
वसुधां याचते
वसुधां नाम तत्र भूमि महीं तत्र याचते अत्र अथवा तत्र बलिराजः तत्र बलि इति राजः अस्ति चेत् अथवा महाराजः अस्ति चेत् तत्र वामनः बलिमहाराजात् वसुधां याचते अतः तत्र वसुधाम् इति तत्र प्रधानं वा गौणं वा
प्रधानं
समीचीनं अस्तु धन्यवादः भगिनि अस्तु अग्रे नरेश महोदय
पाचकः तण्डुलान् ओदनं पचति अत्र ओदनं तु प्रधानं कर्मपदम् अस्ति तण्डुलान् तण्डुलान् द्वितीयवाक्य पाचकः तण्डुलानाम् ओदनं पचति अत्र तण्डुलानां तत्तु षष्टिविभक्ति अस्ति
हा तत्र तण्डुलानाम् इति षष्टिः अस्ति तत्र अतः तत्र तस्य पदस्य विभक्ति भिन्नविभक्ति अन्तं भवितुम् अर्हति इति कृत्वा तत्र तद् गौणं कर्मपदम् हा तत्र पाचकः तण्डुलानाम् ओदनं पचति तत्र ओदनं पचति तण्डुलानाम् ओदनं पचति अस्तु
महोदय तत्र तत्र पाचक तत् तण्डुलानाम् इति षष्टिः अस्ति खलु षष्टिः अस्ति तत् कारकषष्टिः नास्ति तण्डुलैः भवेत् तत्र प्रायः तत्र मुद्रणदोषं भवितुमर्हति एतत् समीचीनमेव तण्डुलानां परन्तु द्विकर्मकस्थाने किम् अस्ति अपादानादिविशेषैः अव्यवक्षितं कारकम् इति अस्ति अतः तण्डुलैः इति भवेत् तत्र कारकमेव खलु तत्र कारकसंज्ञा नास्ति चेत् तत्र सर्वत्र षष्ठी भक्ति भवितुमर्हति
ओ इति 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 अस्तु अस्तु तत्र पञ्चमी
अन्यापि भवितुमर्हति खलु अपादाने विशेष इत्युक्ते पाणिनीय अष्टाध्यायम् अपादानकारक अपादान इति प्रथमसूत्रमस्ति अपादानविषय अपादानादारभ्य तत्र कर्तृकारकपर्यन्तम् अन्ते अस्ति कर्मपदम् अनन्त कर्मकारकात् अनन्तरं कर्मकारक सोरि क्षम्यतां कर्मकारकमस्ति कर्मकारकम् अपि च कर्ता
तत्र षष्ठी अपि अन्तर्भूतं
न षष्ठी न भवति कारकषष्ठी नास्ति अन्तर्भूत
अस्तु 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 कारकषष्ठी अस्तु
कारकैः एव अविवक्षितम् अत्र दूत्रे द्वितीये गोपालः बलेः वसुधां याचति अत्र षष्ठी अपि भवितुमर्हति षष्ठी सर्वत्र भवति पञ्चमी पञ्चमी तृतीया चतुर्थी
सप्तमी
चेत् अपादानादिविशेष इत्युक्ते अपादानादारभ्य अन्ये कारकाणि सन्ति अन्यानि कारकाणि सन्ति तैः अविवक्षितम् इति यदि वयं तत्र तस्य प्रयोगं न वक्तुमिच्छामः तदा एव
सत्यं सत्यं महोदय अस्तु 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 समीचीनम् अस्तु महोदय धन्यवादः अस्तु अतः तत्र प्रायशः तत्र तण्डुलैः इति तत्र वक्तव्यम् इति
अन्येषु पुस्तकेषु तण्डुलैः इति अस्ति तत्र व्याख्यानादिषु
अस्तु महोदय धन्यवादः
तण्डुलैः भवेत् अहम्
अस्तु धन्यवादः
पूर्वम्
अस्तु महोदय
षष्टी इति सर्वत्र भवितुमर्हति खलु अतः
षष्टी
नास्ति तत्र कारकस्य एव प्रश्नः अस्ति खलु
सत्यं सत्यं तत्र यदि षष्टी स्थापितुं शक्नुमः तत्र नाम तत्र सर्वत्र सम्बन्धम् इति सूचयितुं तत्र भवति अतः तत्र कारकम् इति नास्ति अस्तु अतः तत्र
तण्डुलानां सम्यक् नास्ति
सम्यक् अस्ति
तत्र वाक्यं सम्यक् अस्ति महोदय किन्तु तत्र किमस्ति तत्र कारकम् इति तत्र कारणं तत्र हा तत्र किमर्थं तत्र
अन्यकारकः अस्ति चेत् तत्र तण्डुलैः इति तण्डुलानाम् इति कारकः नास्ति खलु तण्डुलं सम्बन्धः एव दृश्यते समीचीनमेव तत् सर्वत्र गोपालः गोः पयः दोक्ति इत्युक्ते गोः इति षष्ठी अपि भवति कस्य पयः इति वामनः वसुधां याचते कस्य इति षष्ठी सर्वत्र भवितुमर्हति तत् कारकषष्ठी नास्ति तत्र केवलसम्बन्धः अस्ति अत्र अत्र तत्र
सत्यं सत्यं तत्र प्रथमवाक्ये तत्र गोः पयः दोग्धि नाम एषः तत्र अथवा गो अस्ति तत्र गोः पयः दोग्धि अतस्य इति अर्थे तत्र सर्वत्र भवति समीचीनं महोदय अतः तत्र हा षष्ठी इति प्रायशः
अपादान अत्र अपादान अस्ति गोः बलेः इति अपादान
सत्यं कस्मात् इति अर्थे एव
शब्दबोधः विद्यते परन्तु वाक्यसमीचीन व्याकरणदृश्य समीचीनं परन्तु शब्दबोधः भिन्नः भवति
भिन्नः भवेत् सत्यं महोदय सत्यं हा धन्यवादः हा अतः तत्र तण्डुलैः ओदनं पचति अथवा तण्डुलैः एव प्रायशः समीचीनं भवति
तण्डुलैः समीचीनम् आम् आम्
तण्डुलकर्णस्य
ओदनं कस्मात् कर्णकारकं भवितुमर्हति तत्र
भवितुमर्हति
मम विवक्षा नास्ति
नरेश् महोदय तत्र वयम् एतावत् तत्र कारकम् इति न कृतवन्तः केवलं विभक्ति एव तत्र अस्माकं तत्र प्रथमः कार्यमासीत् तत्र विभक्तिरूपं कीदृशम् इति एव अग्रे गत्वा तत्र कारकम् इति तत्र किम् अस्ति तत्र कारणं किमर्थं तत्र विभक्तेः एषा एषा विभक्तिः रूपम् एषा विभक्तिः अत्र स्थापनीयम् इति तत्र स्थापनीया इति तत्र कारणम् इति पृच्छामः तत्र कारकम् इति एकः विषयः अस्ति तत्र अग्रे गत्वा द्रक्ष्यामः
अत्र तण्डुलाभ्यः सम्यक् अस्ति
तण्डुलाभ्यः
अपादानं न भवितुं नार्हति खलु तत्र
तत्र हा तत्र तण्डुलाभ्यः हा तत्र तस्मात् स्वीकृत्य तत्र नाम तत्र विभागः भवेत् खलु महोदय तत्र स पञ्चमी अस्ति चेत् तत्र विभागः भवेत् यत्र तत्र वृक्षात् फलं पतति वृक्षः स्थिरः अस्ति फलम् अन्यत्र तत्र पतति तत्र फलं साक्षात् तत्र चरति तत्र तयोः मध्ये विभागः अस्ति यत्र विभागः अस्ति तत्र काले वा अथवा तत्र प्रदेशे वा तत्र यत्र विभागः अस्ति तत्र पञ्चमी भवति अत्र तु तत्र
कारकं भवितुमर्हति अत्र करणकारक भवितुमर्हति खलु तत्र करणकारक एव
तण्डुलैः तत्र तण्डुलैः तण्डुलैः एव
अपि च कारकविवक्षानुगुणमस्ति अतः तत् विवक्षाधीनम् अस्ति अतः कृत्वा अन्येपि भवितुमर्हति कुत्रचित् स्थलेषु
तत्र सत्यं महोदय तत्र प्रथमतया तत्र किं तत्र वाक्यस्य अर्थः कः इति निर्णेत्वा
इति तद् प्रथमं मम विवक्ष इच्छा भिन्नम् अस्ति चेत् तत् अन्यकारकविवक् तत्र प्रयोक्तुं शक्नुवन्ति इति
सत्यं सत्यम् अतः तत्र अर्थः कः इति तत्र विवक्षा का इति दृष्ट्वा तत्र किं रूपम् इति हा अस्तु समीचीनं महोदय इदानीं भवानेव तत्र चतुर्थं करोतु महोदय
हा अस्तु राजा गर्गान् शतं दण्डयति इति अस्ति तत्र राजा दण्डयति शतं दण्डयति तदेव तत्र प्रधानकर्म अस्ति अन्यकारक तत्र न भवितुमर्हति द्वितीयविभक्ति न कारकविभक्ति न भवितुमर्हति कर्तृ कर्म इत्यनेन द्वितीयविभक्ति गर्गान् इति अस्ति तत् गर्गाः तत्र चोराः केपि तत्र गर्गान् इति अत्र गौणकर्म अस्ति इदानीं तत्र मम विवक्ष अन्य कारक इति गर्गस्य गर्गाणां तत्र गर्गेभ्यः इत्युक्ते तत् दण्डं स्वीकरोति अतः तत्कस्मात् अत्र इति तत्र पञ्चमी विभक्ति राजा गर्गेभ्यः शतं दण्डयति इति भवति
तत्र शतं नाम किं महोदय अत्र
शतरूप्यकाणि
इति शतं तत्र शतम् इति संख्या किन्तु तत्र गर्गाः ये सन्ति तेभ्यः तत्र शतं रूप्यकाणि तत्र साक्षात् तत्र शरीरदण्डनम् इति तत्र नास्ति केवलं तत्र तत्र शिक्षा इति तत्र एतद् ददातु रूप्यकाणि ददातु इति शतं रूप्यकाणि ददातु इति अतः तत्र गर्गेभ्यः स्वीकरोति गर्गेभ्यः राजा शतं रूप्यकाणि तत्र स्वीकरोति तत्र अतः तत्र गर्गेभ्यः इति समीचीनं महोदय अस्तु अग्रे रघुवरेन्द्रस्वामी
आं महोदय महोदय
पञ्चमवाक्यं महोदय गोपः इति
गोपः गां व्रजम् अवरुणुद्धि
अर्थः कः इति प्रथमतया किञ्चित् वदतु महोदय तत्र अर्थः न अर्थं न जानीमश्चेत् क्लेशः भवति
अवरुणुद्धि इत्युक्ते किं महोदय
तत्र अवरुणद्धि व्रजं तत्र व्रजं नाम किम्
व्रज इति स्थानमिति मन्ये महोदय
हा स्थानं गोशाला तत्र यत्र तत्र धेनूनां तत्र वासस्थलम् इति तत्र अत्र अतः तत्र व्रजं अवरुणद्धि रुणद्धि तत्र घां व्रजम् अवरुणद्धि तत्र घाम् इति घाम् अवरुणद्धि कुत्र तत्र व्रजे इति तत्र अतः तत्र स्थापयति तत्र बध्नाति बध्नाति
अत्र अधिकरणकारकमस्ति तत् विवक्षा नास्ति चेत् तत्र इदानीं द्वितीयविभक्ति भवति
हा कुत्र कुत्र इति तत्र अधिकरणम् अतः सप्तमी हा सप्तमी व्रजे अतः स्थाने तत्र गोपः धेनुम् अथवा घां व्रजे अवरुणद्धि हा अस्तु समीचीनम् अस्तु अतः तत्र व्रजम् इति गौणं घाम् इति प्रधानम् इति अस्तु समीचीनम् अस्तु अग्रे
हा
अवरुणद्धि नाम तत्र बध्नाति भगिनि तत्र तत्र स्थापयति ततः न गन्तुं शक्नोति तत्र तत्र गोशाला अस्ति अथवा तत्र कौशेड् अथवा तत्र किमपि स्थानं यत् भवेत् ततः धेनुः बहिः न गन्तुं शक्नोति
बन्धनं करोति
हा बध्नाति इति तत्र अतः तत्र अवरुण् अवरुणद्धि हा तत्र रुदादिगणे हा अस्तु लक्ष्मी भगिनी अग्रिमं
पान्तः माणवकं पन्थान् पृच्छति
पन्थानं पन्थानं
पन्थानं पृच्छति
तत्र पन्थानं नाम किं
मार्गं
हा मार्गं पान्तः नाम कः
पतिकः
पतिकः
हा यात्रिकः यः 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 गच्छति यः गच्छति सः एव पान्तः यः कोऽपि अस्ति सः गच्छन् अस्ति हा सः पान्तः हा सः मार्गे गच्छन् अस्ति सः पान्तः सः मार्गं पृच्छति पन्थानं पृच्छति
माणवकं पृच्छति
हा माणवकं नाम
छात्रा
छात्रं छात्रं पृच्छति हा माणवकं पृच्छति इदानीं तत्र गौणं किं प्रधानं किम् इति निर्णेतुं तत्र द्वितीयवाक्यं पश्यामः तत्र किम् अस्ति
पान्तः माणवकात् पन्थानं पृच्छति
हा तत्र
पन्थानं प्रधानकर्म
हा प्रधानकर्म प्रधानं कर्म अपि माणवकं गौणं कर्म कर्म समीचीनं तत्र माणवकात् छात्रात्
छात्रात्
तत्र यः यात्रिकः अस्ति सः यात्रिकः छात्रम् अथवा छात्रात् मार्गं पृच्छति मार्गदर्शनं करोतु भोः तत्र मार्गः कः इति वदतु इति सः पृच्छ तत्र मार्गं पृच्छति हा समीचीनं भगिनि अस्तु अग्रे सूर्यकुमारी
माणि इति अस्ति माणिति
माणिति
माणि इति बालकः इति तत्र
माणि ओ न ज्ञातवान्
अस्ति
इति वा
आमां माणि इति वदामः तत् यः
अस्तु
यः
बालकः अस्ति
बालकः अस्ति यः पठति
पठन् अस्ति अस्तु
अतः माणि इति वदामः माणि
ओ अस्तु महोदय हा सूर्यकुमारी भगिनी अग्रे
महोदय वटुः वृक्षं फलानि अवचिनोति द्विकर्मकवाक्यमस्ति
अस्ति तत्र तत्र सः साक्षात् किम् अवचिनोति तत्र किं
फलानि अवचिनोति
हा तत्र फलानि एव सः प्राप्नोति किन्तु वृक्षं न प्राप्नोति खलु तत्र हा अतः तत्र भेदः अस्ति इदानीं तत्र
वृक्षं
हा अवचिनोति नाम चिनोति किन्तु तत्र चिनोति इति तत्र सेलेक्ट् इति अपि वक्तुं शक्नुमः अथवा तत्र अवचिनोति नाम साक्षात् प्लक् इति अवचिनोति वटुः लघुबालकः बालकः
ब्राह्मणबालकः
हा बालकः तत्र हा इदानीं द्वितीयवाक्यम्
अपादानकारकमस्ति वटुः वृक्षात् फलानि अवचिनोति विवक्ष अस्ति चेत् अपादानकारकविभक्ति उपयुज्यते
हा तत्र वृक्षात् कस्मात् फलानि अवचिनोति वृक्षात् अवचिनोति हा तत्र वृक्षमस्ति फलमस्ति किन्तु इदानीं तत्र किं यदा सः अवचिनोति किं भवति तत्र वृक्षः कुत्र अस्ति तत्र एव अस्ति किन्तु फलं अन्यत्र अस्ति खलु इदानीम् अपादानम् अभवत् अतः तत्र वटुः वृक्षात् फलानि अवचिनोति इति रूपं प्राप्तम् अतः तत्र वृक्षम् इति गौणं कर्मपदं फलानि इति प्रधानकर्मपदं समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
पिता मानकं मानवकं धर्मं ब्रूते
हा ब्रूते नाम
वदति
वदति इदानीं तत्र ब्रूते नाम वदति समानार्थकक्रियापदं क्रियापदम् अतः तत्र वदति इति अपि तत्र द्विकर्मकत्वम् अस्ति अहं कं किं वदामि इति अतः तत्र तत्रापि द्विकर्मकं द्विकर्मकत्वम् अस्ति हा
अत्र धर्मं तु प्रधानकर्मम् अस्ति प्रधानकर्म मानवकं गौण गौण कर्म अस्ति
गौणं कर्मपदम् अस्ति
द्वितीयवाक्ये पिता मानवकाय धर्मं ब्रूते
हा मानवकाय तस्मै मानवकाय धर्मं वदति नाम तत्र कस्मै वदति मानवकाय वदति अतः तत्र रूपभेदम् अन्यत् अन्या विभक्तिः स्थापिता अस्ति तत्र अतः तत्र जानीमः तत्र मानवकम् इति तत्तु गौणम् एव इति समीचीनं हा अपि अवगच्छति खलु महोदय तत्र कोऽपि क्लेशः नास्ति खलु वाक्यस्य अर्थे हा अस्तु समीचीनम् अस्तु इदानीं रघुवीरेन्द्रस्वामी अग्रे
महोदय चैत्रः
न गुरुः इति
गुरुः मानवकं धर्मं शास्ति गुरुः मानवकाय धर्मं शास्ति
तत्र शास्ति नाम
बोधयति
हा किन्तु किञ्चित् तत्र शास्ति नाम शासनम् इति खलु तत्र शासनं करोति एषः एव धर्मः तत्र अनुसरणं तत्र तस्य अनुसरणं करणीयम् एव इति खलु तत्र हा अतः तत्र ब्रूते अपि शास्ति भेदः अस्ति तत्र तयोः मध्ये हा नो चेत् तत्र समानार्थकः अस्ति चेत् तत्र किमर्थं तत्र गुरुः धर्मम् इति अतः तत्र हा इदानीं तत्र प्रधानं किं गौणं किम् इति किञ्चित् वदतु महोदय
धर्मम् इति प्रधानं महोदय धर्म इति प्रधानकर्म भवति मानवकम् इति गौणकर्म भवति
अस्ति
चेत् मानवकाय इति सम्प्रदानं भवति
हा अतः तत्र मानवकाय इति अन्यत् कारकं स्वीकृत्य वक्तुं शक्नुमः समीचीनं महोदय अस्तु धन्यवादः रघुपतिमहोदय अग्रे
आं महोदय एकवारं चैत्रः देवदत्तं शतं जयति इति अत्र शतम् इति अत्र शतं रूप्यकाणि यत्किमपि तत्र शतं जयति इति अस्ति अत्र प्रधानकर्म अस्ति कर्मपदमस्ति देवदत्त अतः गौणकर्मपदमस्ति अतः तत्र द्वितीया विभक्तिः भवति चैत्रः देवदत्तं शतं जयति जी धातुः अकर्मक द्विकर्मकधातुः अस्ति इति कृत्वा देवदत्तः तस्य इदानीं गौणकर्म भवति यदि विवक्षा नास्ति गौणकर्म विवक्षाकारकविवक्षा अन्यकारकविवक्षा अस्ति चेत् तत्र पञ्चमी भवति चैत्रः देवदत्तात् शतं जयति इति अत्र देवदत्तात् इति अपादानकारकं शतमिति तत्र कर्मकारकम् अस्ति
हा अतः तत्र शतमिति प्रधानं देवदत्तम् इति गौणं हा समीचीनं महोदय अस्तु अस्तु अग्रे किं महोदय?
जयति किमस्ति, प्राप्नोति।
हा तत्र क्रीडा किमपि अस्ति तत्र क्रीडायां सः जयति, तत्र
विन् विन् इति विन्
विन् विन् प्राप्नोति इति केवलम् ओप्टेन् इति, तत्र तत्र द्यूतक्रीडा किमपि अस्ति तत्र तस्मिन् तस्यां क्रीडायां जयति इति।
अस्तु
अतः तत्र प्राप्नोति सत्यं, किन्तु तत्र किञ्चित् भेदः, कश्चन भेदः वर्तते। अस्तु अग्रे
अग्रे सुरासुरधनः सुधां क्षीरनिधिं मथ्नाति। मथ्नाति तु क्रियापदमस्ति। सुधां क्षीरनिधिं मथ्नाति
तत्र कर्तृपदं, तत्र सुरासुरगणागणः तत्र किमस्ति? तत्र
सुरासुरगणः बहुवचनम् अस्ति,
न न गणः गणः इति मत्ना तत्र गणः इति, तत्र सुरासुर इति
समस्तगणः।
हा तत्र पृथक् पृथक्तया वदामः किं भवति तत्र? तत्र
सुराः असुराश्च,
असुराः तेषां तेषां गणगणः तेषां गणः। हा तत्र सुराणां देवानां गणः, असुराणां गणः राक्षसानां गणः, तत्र सुरासुरगणः मत्नाति। सुधां नाम
समुद्रं,
न न सुधां नाम अमृतम्,
अमृतम्।
हा तत्र क्षीरनिधिम् इति नाम क्षीर क्षीरसमुद्रं
समुद्रं
क्षीरसागरं क्षीरसागरं मत्नाति। हा इदानीं द्वितीयवाक्यं पठतु तत्र।
सुरासुरगणः सुधां क्षीरनिधौ मत्नाति।
तत्र निधिः अस्ति, निधिम् इति आसीत्, निधिः इति प्रथमविभक्तिरूपम्, इदानीं तत्र निधौ इति तत्र विभक्ति का तत्र?
सप्तमी।
हा अतः तत्र अन्यत् कारकं नाम सप्तमीविभक्तिरूपं प्राप्तम्, अतः तत्र सुरासुरगणः नाम तत्र देवताः राक्षसाः च, तत्र अमृतं कुत्र? तत्र क्षीरसागरे, तत्र हा तत्र मत्नाति, मत्नान्ति इति न इति रूपं भवेत् न वा इति न जानामि, किन्तु तत्र हा मन्थनं कृतवन्तः। हा तत्र मन्थनं कृतवन्तः, मथनं 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 मथनं,
तत्र लोपः भवति, मन्थ इति धातु अस्ति, नकारः लोपः भवति,
अतः तत्र मथनम् एव
मत्नाति एव अस्ति, तत्र नकारस्य लोपः भवति, नित् अस्ति चेत् तत्र अस्ति, तत्र मत्नाति एव
एकवचने वा
मत्नाति इति एकवचने खलु,
एकवचने बहुवचने बहुवचने
मत्नाति मत्नीतः मत्नन्ति इति
मत्नन्ति
मत्नाति मत्नीतः मत्नन्ति
मत्नन्ति। अस्तु महोदय, अहमपि न स्मरामि महोदय, अतः एव पृष्टवान्। अस्तु अस्तु नरेश महोदय, अस्तु
बध्नाति बध्नीतः बध्नन्ति खलु तदेव, तत्र नवमगणे गणे अस्ति खलु स्नाद स्ना इति,
अस्तु 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 समीचीनमस्ति, अस्तु धन्यवादः महोदय, हा समीचीनं, हा अस्तु। अतः नरेश महोदय तत्र किं गौणं किं प्रधानं?
प्रधानं सुधां प्रधानमस्ति, क्षीरनिधिं तत्तु गौणम् अस्ति,
गौणम् अस्ति, समीचीनं। हा अस्तु अग्रे लक्ष्मी भगिनी।
चैत्रः देवदत्तं शतं मुष्णादि।
हा तत्र शतं नाम किं? तत्र रूप्यकाणि रूप्यकाणि। हा तत्र मुष्णाति नाम चोरयति,
अत्र देवदत्तात् इति भवितुम् अर्हति। चैत्रः देवदत्तं शतं रूप्यकाणि मुष्णादि
अथवा चैत्रः
चैत्रात् देवदत्तात् चैत्रः देवदत्तात् शतं मुष्णादि
हा इति अतः तत्र प्रधानं किं
प्रधानं
कर्म देवदत्तं
गौणं कर्मपदम्
कर्मपदम् इति तत्र कारणमपि वक्तव्यं किमर्थम् एतत्र द्विकर्मकधातूनां विषयः अत्र भवति इति एकं कारणमस्ति नाम अग्रे तत्र कर्मणि प्रयोगः भवति कर्मणि प्रयोगसमये सन्दर्भे तत्र द्विकर्मकधातुः अस्ति चेत् तत्र कस्य तृतीया विभक्ति भवेत् इति तत्र विषयः आगच्छति अतः तत्र इदानीम् एतस्य किञ्चित् पठनम् अस्माभिः कृतमस्ति इदानीम् अपि तत्र मूष्णाति तत्र मूषकः किं करोति तत्र किमपि अस्ति मुष्णाति एव
तथैव तस्मात् एव मूषकः या
मूषकः या मुष्णाति सः मूषकः इति तत्र अतः एव तत्र मुष्णाति तत्र स्वीकृत्य अन्यत्र गच्छति सः
समाजे मानवरूपी मूषकाः सन्ति
अपि सत्यं सत्यम् अस्तु अग्रे रघुपतिमहोदय भवानेव अग्रे
अस्तु कृषिकः ग्रामम् अजां नयति इति अस्ति अत्र अजा इति तत्र प्रधानकर्म अस्ति अतः द्वितीय तत्र परिवर्तनं न भवति ग्रामम् इति अस्ति तत् गौणकर्म अस्ति यदि विवक्षा अस्ति अन्यकारकस्य तत्र पञ्चमी अधिकरणं भवितुमर्हति सप्तमी कृषकः ग्रामे अजां नयति अथवा मम विवक्षा नास्ति चेत् कृषकः ग्रामम् अजां नयति नी धातुः द्विकर्मकः अस्ति कृत्वा तत्र
समीचीनं महोदय अस्तु अग्रे रघुवीरेन्द्रस्वामी अग्रे
क्षम्यतां महोदय आम् गोपः वृषभं गोष्ठं हरति गोपः वृषभं गोष्ठे हरति
तत्र अर्थः कः इति किञ्चित् एकवारं वदतु महोदय तत्र
गोपः वृषभं हरति तु तत्र हरति इति नेति नास्ति
अन्य कोऽपि वदति वा तत्र हरति नाम
प्रायः महोदय तत्र हरति इति अस्ति तत्र प्रायः तत्र पञ्चमी भवितुमर्हति खलु तत्र हरति इति तत्र हरणं खलु
अतः तत्र अतः तत्र अहं चिन्तितवान् तत्र गोष्ठात् हरति इति अपि तत्र गोष्ठात् हरति इति
भवेत् प्रायः तत्र
अतः प्रायः तत्र
पञ्चमी न पञ्चमी भवेत् सप्तमी तदपि अधिकरणं भवति विवक्षा अस्ति चेत् कुत्र इति कुत्र हरति इति खलु कारकविवक्षा अस्ति विवक्षानुगुणम् अस्ति अतः पञ्चमी सप्तमी अपि भवितुमर्हति पञ्चमी समीचीनमेव
समीचीनमेव
भवति खलु तत्र
गोष्ठात्
गोष्ठे अस्ति इदानीं वृषभः तं हरति खलु वृषभं हरति खलु तत्र स्वस्थाने नयति
अतः तत्र अपादनम् अस्ति तत्र
अधिकरणमपि भवितुमर्हति कुत्र हरति इति यत् कार्यं कुत्र अभवत्
इति स्थाने सत्यं महोदय अतः तत्र रघुवीरेन्द्रस्वामी तत्र इदानीं तत्र गौणं किं प्रधानं किम् इति
गोपः वृषभं हरति तत्र वृषभम् इति प्रधानकर्मपदमस्ति गोष्ठम् इति
गौणं कर्मपदं गौणं कर्मपदं समीचीनं गौणं यतोहि तत्र कर्म इति नपुंसकलिङ्गे अस्ति खलु महोदय अतः कर्म इति वदामः किन्तु नपुंसकलिङ्गपदम् अस्ति अतः तावदेव अस्तु अस्तु
हरति इत्यस्य अर्थः अपहरति वा नयति
तादृशः नयति न तत्र हरति तत्र तस्मात् आनयति तत्र बलात् आनयति अथवा तत्र हा अपहरति इति अर्थे हा ब्रिङ्ग् तत्र बलात् आनयति इति तत् हा हरति हा अस्तु अस्तु अग्रे भवती एव अग्रिमवाक्यं पठतु भगिनि
गोपः गोवत्सं गोष्ठं कर्षति
हा अत्र कर्षति नाम बलात् नयति तत्र पूर्वं बलात् आनयति इति वक्तुं शक्नुमः इदानीं तत्र कर्षति नाम बलात् तत्र नयति गोवत्सं न गन्तुम् इच्छति किन्तु गोवत्सः तत्र किन्तु हा कर्षति तत्र आकर्षणम् इति तत्र हा तत्र कर्षति इति तत्र धातुद्वयमस्ति तत्र एकः अत्र अस्ति कर्षति आकर्षणम् इति अर्थे अन्यः तत्र कृषिकः यः करोति तत्र हा हा तदपि तत्र कृषिककार्यं तत्र किन्तु अर्थः भिन्न अर्थः अन्यः अन्यगणे
कर्षति कृष्णः इत्यत्र कर्षति आकर्षति इति
हा कृष्णः तत्र तु आकर्षति एव सत्यं सत्यं हा अतः तत्र अत्र गोवत्सम् अपि गोष्ठम् इति तत्र किं प्रधानं किं गौणम्
गोष्ठम् इति प्रधानं प्रधानं कर्म गोवत्सं गौणं गौणं कर्म
न न न कस् यस्य कर्मत्वं स्थिरमस्ति तद् प्रधानं
गोवत्सं
हा भवती गोवत्सम् इति तत्र गौणम् इति उक्तवती इति मन्ये खलु
न अहं गो गो गोष्ठम् उक्तवती
अस्तु 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 भगिनि अस्तु गोष्ठं गोष्ठं
गोष्ठमेव खलु महोदय तत्र अनास्ति गोवत्सः वा
तत्र गोवत्सम् इति प्रधानं
न नास्ति महोदय तत्र कर्षति इति एकवारं तत्र किमस्ति तत्र पश्यतु अत्र अग्रे अस्ति गोवष्टं कर्षति गोव पश्यतु महोदय तत्र कर्षति गोवत्सं
गोष्ठः इत्युक्ते गणः
न गोष्ठमिति गोष्ठ तत्र अग्रिम इति अस्ति तत्र गोष्ठं गोष्ठमिति प्रधानकर्म अस्ति इति अस्ति इति वा किमपि क्लेशः अस्ति
ओ क्षम्यतां क्षम्यतां हा
तत्र तत्र अग्रिमपुटे तत्र द्विकर्मकर्मणि प्रयोगे पश्यतु तत्र मम पार्श्वे पुस्तकमस्ति गोपः गोवत्सं तद् गाष्ठम् एक गोष्ठं भवेत् प्रायः गाष्ठम् इति उक्तमस्ति गोष्ठं कर्षति इति कर्तरि प्रयोगे इदानीं कर्मणि प्रयोगे गोपेन गोवत्सः गोष्ठं कृष्यते इति अस्ति अतः तत्र गोष्ठम् इति तत्र प्रधानकर्म अस्ति कर्षति कर्षणं प्रायः भूमिकर्षणं प्रायः अत्र भवेत् अथवा किमपि इति वा
अहं चिन्तयामि
गोष्ठमेव षड् एव
हा षड् एव तत्र
षड् एव
हा तत्र गोष्ठम् इति
गोशाला
हा तत्र
गोष्ठे अत्र भवितुमर्हति महोदय तत्र अस्माकं विवक्षा अस्ति चेत् तत् तादृश भवति आमां सत्यं परन्तु अत्र अस्मिन् पुस्तक अग्रिमपुस्तके तद् अग्रिमपुटे तत्र गोष्ठ इति द्वय स्थलद्वये अपि द्विकर्मक अस्ति प्रधानक एकवारं प्रधानकर्म गोवत्स इति तत्र गौणकर्म इति तत्र दर्शितमस्ति
गोवत्सम् इति गौण
एकमस्ति गोपः गोवत्सं गोष्ठं कर्षति द्वितीयवाक्ये गोपेन गोवत्सः गोष्ठं कृष्यते इति अस्ति तत्र ओ अस्तु अस्तु क्षम्यतां महोदय तत्र प्रधानकर्म एव अस्ति गोवत्सः
प्रधानं गोवत्सः इति अस्ति गोवत्सः अस्ति चेत् गोवत्सः अस्ति चेत् तत्र प्रथमाविभक्तिः प्रधानकर्म अस्तु अस्तु समीचीनम् अस्तु 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 धन्यवादः
धातोः प्रधानकर्म एव भवति कर्मणि प्रयोगे
सत्यम् अतः अस्तु 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 अतः तत्र गोवत्सः इति रूपम् अस्ति चेत् गोवत्सम् इति एव तत्र प्रधानकर्म प्रधानं कर्मपदम् अपि तत्र गोष्ठम् इति तत्र गौणकर्मं गौणं कर्मपदम् अस्तु समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनी अन्तिमवाक्यं
महोदय कृषिकः अजापुत्रं नगरं वहति वह धातु द्विकर्मक धातुः अस्ति कृषिकः अजापुत्रं नगरे वहति
तत्र अजापुत्रं नगरे
प्रधानकर्म कर्म नगरं गौणकर्म
तत्र अजापुत्राय अथवा अजापुत्रे नगरं वहति तद् तादृशरूपं किमपि न भवितुम् अर्हति खलु तत्र
न भवति
हा अजापुत्राय पुत्रेण नगरं वहति इति तत्र सः कृषिकः नगरं साक्षात् न वहति अतः केवलम् अजापुत्रमेव वहति इदानीं तत्र अतः तत्र नगरम् इति गौणकर्मपदम् अपि अजापुत्रम् इति प्रधानकर्मपदम् इति समीचीनं हा अतः तत्र इदानीं तत्र द्विकर्मकः धातवः ये सन्ति तत्र षोडशाः धातवः ये सन्ति तान् दृष्टवन्तः किन्तु ते प्रतिनिधिरूपत्वेन तत्र अत्र सन्ति नाम यस्य धातोः समा अर्थः समानः अस्ति अस्मिन् तत्र यथा वयं दृष्टवन्तः तत्र ब्रूते इति तत्र वदति तत्र समानार्थकः अतः तत्र वदति अपि तत्र द्विकर्मकधातुः अस्ति अतः तत्र केवलं षोडशः धातवः सन्ति इति न किन्तु अनेकाः अनेके धातवः द्विकर्मकधातवः सन्ति तेषां प्रतिनिधयः अत्र सन्ति षोडशः प्रतिनिधयः सन्ति तेषां तत्र द्विकर्मकः धातूनां षोडशः प्रतिनिधयः सन्ति अस्तु तर्हि इदानीं तत्र पुस्तकं
अन्यविशिष्ट कार्यमपि अस्ति द्विकर्म धातुः प्रथमपुरुष एकवचने भवति
न अवगच्छामि भगिनि वदतु पुनः
एक क्रियापदं प्रथमपुरुष एकवचनमेव भवति
क्रियापदं प्रथम
दोग्धि दोग्धः
न तत् तत् नास्ति नास्ति न तत् तत् नास्ति
बहुवचनं भवति अत्र सर्वत्र कर्ता एकवचने अस्ति
प्रथमपुरुषे दत्तमस्ति किन्तु भगिनी तत्र तत्र पश्यतु तत्र पाचकः इति स्थाने तत्र अहं तण्डुलान् ओदनं पचामि अथवा तत्र तत्र अथवा ते तण्डुलान्
पाचकाः तण्डुलान् ओदनं पचन्ति इति भवति खलु
हा अतः तत्र सर्वदा प्रथमपुरुषे एकवचनम् इति नास्ति भगिनि हा
महोदय गीतासोपानपुस्तके द्विकर्मकाः धातवः षोडश सन्ति तेषां लट्लकारे प्रथमपुरुषेकवचनानि एवं भवन्ति
एव भवति इति नास्ति एवं भवति
एवम् एवम् इति अस्तु अस्तु भगिनि एवम् इति नाम एतादृशं भवति नत्र लैक् दिस् इति अर्थे हा एवं नाम ओन्लि इति न तत्र केवलम् इति अर्थे नास्ति भगिनि तत्र सीमा नास्ति तत्र पश्यतु अधौ तत्र नाम दुः इति धातुः अस्ति तत्र रूपं किं दत्तमस्ति तत्र दोग्धि इति रूपं दत्तमस्ति खलु दोग्धि इति तत्र पुरुषः कः प्रथमपुरुषः एकवचनं हा तत्र अतः एव गोपालः गां पयो डोग्धि इति अस्ति अतः ते वदन्ति तत्र प्रथमपुरुष एकवचनरूपाणि एवं भवन्ति नाम केवलं वयं प्रथमपुरुष एकवचनरूपं रूपाणि रूपमेव दत्तवन्तः अधोभागे हा किन्तु तत्र धातुः द्विकर्मकः धातुः अस्ति अतः तत्र सर्वत्र तस्य प्रयोगः भवति तत्र द्विकर्मक तत्र कर्मपदद्वयं भवति
मम चिन्तनम्
अस्तु अस्तु भगिनि समीचीनं भगिनी भवती पृष्टवती समीचीनं हा इदानीं तत्र क्लेशः मास्तु अतः तत्र तत्र पुरुषः उत्तमपुरुषः अपि भवितुम् अर्हति अपि तत्र बहुवचने अपि भवितुम् अर्हति अस्तु अधोभागे तत्र नरेश् महोदय अधोभागे सूक्तिः अस्ति तत् एकवारं पठति वा सूक्तिं
ग्रामाय गोष्ठाय
न न महोदय क्षम्यतां क्षम्यताम् इदानीं तत्र अत्र मास्तु पुस्तके पुस्तके महोदय तत्र पञ्चदश अधिकशततमे पुटे अधोभागे सूक्तिः
बहुविघ्नास्तु सदा कल्याणसिद्धयः बहुविघ्नास्तु सदा कल्याणसिद्धयः
कल्याणसिद्धयः नाम
कल्याणं सिद्धति
न न कार्यं तत्र यत् किमपि शुभकार्यं शुभकार्याणि इति चिन्तयितुं शुभकार्याणि सदा तत्र बहुविघ्नास्तु इति तत्र
यत्र बहु विघ्नः अस्ति
हा नाम तत्र बहुविघ्नाः तु सदा कल्याणसिद्धयः नाम तत्र शुभकार्येषु तत्र बहुविघ्नाः तत्र तत्र हा विघ्न तत्र क्लेशः सर्वदा भवति तत्र केवलं हा अतः तत्र बहुविघ्नाः सन्ति इति अतः
बहु क्लेशाः बहुविघ्नाः सन्ति
न यत् यत् शुभकार्यमस्ति शुभकार्येषु विघ्न तत्र विघ्नः इति तत्र लिङ्गं कोऽपि स्मरति वा विघ्ना वा विघ्नं वा अतः तत्र विघ्नाः तत्र अतः तत्र शुभकार्येषु अनेके विघ्नाः सर्वदा भवन्ति एव इति कृत्वा अतः तत्र शुभकार्येषु तत्र विघ्नाः सन्ति इति कृत्वा तत्र स्थगनीयः इति न करणीयम् एव तत्र करणीयः एव अस्तु इदानीं तत्र अग्रिमे वर्गे तत्र वयं किं कुर्मः कर्मणि प्रयोगः इति आरम्भम् इति विषयः भवति अत्र कर्मणि प्रयोगे तत्र कर्मपदस्य प्राधान्यं कर्मणः प्राधान्यम् अस्ति अत्र यदि तत्र क्रियापदं द्विकर्मकक्रियापदं भवति चेत् तत्र प्रश्नः उदेति तत्र इदानीं कर्मपदं द्वयमस्ति कर्मपदस्य कर्मणि प्रयोगे प्रथमाविभक्त्यन्तं भवेत् किन्तु इदानीं कर्मपदं द्वयमस्ति कस्य कर्मपदस्य प्रथमाविभक्त्यन्तं भवेत् इति प्रश्नः अतः तत्र प्रधानं कर्म यत् अस्ति तस्य एव तत्र प्रथमाविभक्त्यन्तं भवति इति तत्र अग्रे पश्यामः अस्तु तर्हि तत्र समीचीनमस्ति तत्र द्विकर्मक इति विषयं अद्य कृतवन्तः समीचीनं तत्र रघुवेनन्दस्वामी भवानेव तत्र अन्ते प्रार्थना शान्तिमन्त्रं वदति वा महोदय
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः
नमस्कारः महोदय धन्यवादः
धन्यवादः